अस्ते वस प्रतनल्लाजमस्यन्भोजन् निव प्रभरास्तोममस्मै वाचा विप्रास्तरत वाचमर्यो निरामजरितः स भ इन्द्रम् दोहे नगामुपशिक्षा सखाजम् प्रबोधयजरितर्जारमिन्द्रम् कोशन्न पूर्णम् वसुनान्वेष्टवाच्यापजमघतेजायशोरम् किमङ्गत्वा मघवन् भोजमाहुश्यशेहि मा शिशयन्ता शृणोमि अप्रस्वदेम बधेरस्तु शक्रवसविदम् भगमिन्द्राभरानः त्वाञ्जना मम सत्येष्विन्द्रसन्दस्थाना विह्पजन्ते समीके अत्राजजम् कृणतेजाहविष्मान्नासुन्वदा सख्यम् वष्टिशोराः धनम् न स्पन्द्रम् बहुलञ्जो अस्मै देव्रान् सोमाम् आसनादिप्रयस्वान् तस्मै शत्रान् सुतकान् प्रातरन् हानिस्पष्ट्रान् युवदिहन्ति व्रत्राम् यस्मिन् भयन्दधिमाशम् समिन्द्रेजश्रायमघपाकापमस्मे आराच्यत्सन्भयतामस्य शत्रुर्यस्मै द्युम्नाजन्यानमन्ताम् आराच्छत्रुपबाधस्वधोरमुग्राजः शम्भः पुरः ततेन अस्मेधे हि यवमद्गोपदिन्द्रकृते धियम् चरित्रे भाजरत्नाम् प्रयमन्तरवृषसवासो अग्मन् देव्राः सोमा बहुलान्ता स इन्द्रम् नाहदामानम् मघवानियम् सन्निसन् वते महति भोरिभामम् उत प्रहामति देव्या जयादिकृतम् यच्छ्वघ्ने विजनादि काले यो देवका मानधनारुणध्यसमित्तम् राजा सृजति स्वधावान् गोभिष्टरे मापतिन्दुरे बाञ्जवे रक्षधम् वरहोतमिश्वा वयम् राजभिः प्रथमाधनाञ्जस्माकेन वृजनेनाजदेव बृहस्पतिर्नः परिपातु पश्चादतोत्तरस्मादधराजघायोः इन्द्रः पुरस्तादुदमध्यतो नः सखा सखिभ्यो परिमः कृणोत